नमस्काराः। अद्य वैयाकरणभूषणसारस्य धात्वर्थप्रकरणे अष्टमः पाठः, जनवरी मासस्य एकत्रिंशः दिनाङ्कः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्। श्रीलक्ष्मीरमणम् नौमि गौरीरमणरूपिणम् स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते। वैयाकरणभूषणसारे भट्टोजिदीक्षितानां वैयाकरणमतोन्मज्जनकारिकाः व्याख्यातास्सन्ति। तत्र धात्वर्थप्रकरणे प्रथमा कारिका अस्ति फलव्यापारयोर्धातुः आश्रयेतु तिङस्मृताः, फले प्रधानं व्यापारः तिङर्थस्तु विशेषणम् इति। अस्याः कारिकायाः व्याख्यानम् अस्माभिः अधीयमानमस्ति। तत्र प्रथमः भागः अस्ति फलव्यापारयोर्धातुः, स्मृतः इति वचनविपरिणामेन अन्वयः, अर्थात् धातुः फलस्य व्यापारस्य च वाचकः इत्यर्थः। फलं नाम किं, व्यापारो नाम कः इति तत्रैव उच्यते कौण्डभट्टेन, फलं विक्लित्यादि। फलशब्देन अत्र लोके प्रसिद्धं क्रियायाः उद्देश्यं न विवक्षितम्। यथा लोके पाकस्य प्रयोजनं भोजनम् अथवा यज्ञस्य फलं स्वर्गः इत्यादि उच्यते, तदत्र फलत्वेन न विवक्ष्यते, अपि तु पारिभाषिकं फलं। तच्च तद्धात्वर्थविशेषणत्वे सति तद्धात्वर्थत्वम् इति परिभाष्यते। अर्थात् यथा पच् इति धातुः, तस्य धातोः विक्लित्तिः तदनुकूलव्यापारश्चार्थः। विक्लित्तिः तद्धात्वर्थविशेषणत्वमस्ति विक्लित्तौ, तद्धात्वर्थः इत्यनेन व्यापारः, व्यापारविशेषणत्वं विक्लित्तौ अस्ति, अतः तद्धात्वर्थविशेषणत्वे सति तद्धात्वर्थत्वम्। इदानीं तु पचधात्वर्थत्वेन विक्लित्तिः स्वीक्रियते। उभयमस्ति, तद्धात्वर्थत्वमप्यस्ति तद्धात्वर्थविशेषणत्वमप्यस्ति इत्यतः विक्लित्तिः फलम्, पचधातोः विक्लित्तिः फलम्। एवं गमधातोः उत्तरदेशसंयोगः फलम्, खाद् धातोः गलविलाधसंयोगः फलम् इत्यादिरीत्या फलम् उच्यते। व्यापारः कः, व्यापारो नाम भावना, साध्यत्वेन अभिधीयमाना क्रिया इति व्यापारस्य लक्षणम्। क्रिया आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते, यत्र अवयवानां क्रमिकोत्पत्तिः भवति सा क्रिया। क्रिया द्विविधा, साध्यक्रिया सिद्धक्रिया। यत्र क्रियान्तरस्य आकाङ्क्षा न भवति सा साध्यक्रिया, यथा पचति। पचति इत्युक्ते द्रव्यस्य आकाङ्क्षा उदेति, कः पचति, किं पचति इत्यादि, किन्तु क्रियाविषयिणी आकाङ्क्षा नोदेति इत्यतः क्रियान्तराकाङ्क्षा नास्ति, अतः सा सिद्धक्रिया। यत्र तु पाकः इति उच्यते, तत्र पाकः भवति अथवा भविष्यति, अभूत् इत्यादि क्रियान्तरस्य आकाङ्क्षा विद्यते। यत्र क्रियान्तराकाङ्क्षा उत्थापकत्वमस्ति सा सिद्धक्रिया, क्रियान्ताराकाङ्क्षा यत्र नोदेति सा साध्यक्रिया। एवं यत्र क्रिया साध्यत्वेन अभिधीयते सा एव व्यापारः इत्युच्यते अथवा भावना इत्युच्यते। एषः व्यापारः धातुवाच्यः इत्यर्थः। अयं च व्यापारः क्रमजन्मनां बहूनाम् अवान्तरव्यापाराणां समुदायः। क्रियायाः कदापि एकत्वं न सम्भवति, सर्वापि क्रिया अवान्तरक्रियाणां समुदायः। Since action necessarily happens in relation to time, it always refers to the sequential occurrence over time, in relation to time. Ataha sarvatra avantara vyaparanam samudayaha eva kriya. Ataha vyaparaha samudayaha. Sarveshamapi avantara vyaparanam tattadrupena vachyatvam. Ityapi angikriyate. Yatha pach iti pakanukulaha yaha vyaparaha. Tatra bhutkaraha chulyaha jvalanam. Patrasya sthapanam. Tatra tandula prakshepanam, udakasechanam, ityevam kremena, bahavaha avantara vyaparaha santi, yasmin samaye yaha vyaparaha vivakshyate, sayeva dhatuna uchyate iti, sthiti, evancha sarveshamapi avantara vyaparanam, tatadrupena vachyatvam asti, etesham vyaparanam, buddhya abhedaha prakalpyate. Gunabhutairavarevaihi samuhaha kramajanmanam buddhya prakalpita bhedaha creative vyapadishyate iti vakyapadiyasya karika. Evam buddhya yadyapi avantara vyaparanam bahutvamasti tathapi tesham sarvesham gunabhutatvam athava apradhana bhutatvam apradhanyameva asti tesham samuhaha kramashaha utpadyamananam etesham avantara vyaparanam samuhaha tatra buddhi visheshena ekatvam prakalpyate buddhya prakalpita bhedaha sa eva kriya ityuchyate etadeva adaya eka kriya iti vyavaharaha yadyapi vastutaha kriyayaha ekatvam nasti tathapi buddhi visheshaikyam adaya kriyayam ekatva vyavaharaha kriyate iti vyaparasya lakshanam. Evam phalavyaparayor dhatuhu iti prathamaha amshaha idanim vyakhyataha. Dvitiyaha amshaha asti ashrayetu tingasmritaha iti. Dhatvartham nirupya tingarthamaha ashrayetu iti phalavyaparayor dhatuhu ashraye. Ashrayaha sarvada adheya nishthaha. Kasya ashrayaha iti akanksha nityam bhavati. Kasya iti prashne pratyasatya phala vyaparayor ashraye ityartha svikriyate. Phalashraye vyaparashraye cha tingam shaktihi. Phalashrayaha namakaha karma. Yatra phalam drishyate tadeva karma. Yatra athava yasmin vyaparaha drishyate saeva vyaparashrayaha karta. Evancha karma. కర్తాచ తిం ప్రత్యయేన ఉచ్యతే ఇతి వైయాకరణ సిద్ధాంతః కర్తృకర్మణీ తింగర్థః. అత్ర తింగాం ఆఖ్యాతార్థత్వ సాధనే బహవః వాదాః గ్రంథకర్త్ర ఉపస్థాప్యంతే పూర్వపక్షాః తేషాం నిరాకరణం చ. తత్ర ప్రథమతః వైయాకరణః వైయాకరణానాం ప్రథమతః అయం వాదః. పచతి దేవదత్తః అథవా పచ్యతే ఓదనః ఇత్యాది ప్రయోగాః యత్ర క్రియంతే తత్ర కర్తృకర్మణోః ప్రతీతిః అస్తి. సర్వైః అవగమ్యతే పచతి ఇత్యుక్తే దేవదత్తః కశ్చిత్, పచ్యతే ఇత్యుక్తే కశ్చిత్ పదార్థః కర్మభూతః ఇతి. ఏవం పచతి ఇత్యుక్తే కశ్చిత్ కర్తృభూతః ఇతి కర్తృకర్మణోః ప్రతీతిః భవతి. అతః కర్తృకర్మణి తింగ్వాచ్యే యస్య యస్మాత్ శబ్దాద్ యస్య అర్థస్య ప్రతీతిః భవతి సః అర్థః తచ్ఛబ్దవాచ్యః ఇతి అనుభవసిద్ధత్వాత్ తింగ్ ప్రత్యయేన కర్తా కర్మ చ ఉచ్యతే ఇతి వైయాకరణానాం వాదః. సో ద నంబర్ హియర్ రిఫర్స్ టు ద ఆర్గ్యుమెంట్ నంబర్ అండ్ ద వై సేస్ దట్ ఇట్ ఇస్ ద వైయాకరణాస్ హు ఆర్ స్టేటింగ్ దిస్. తత్ర అస్య ఉత్తరత్వేన పక్షత్రయం సముపస్థాప్యతే భూషణాచార్య. పక్షత్రయమపి భిన్న దర్శన రీత్యా కర్తృకర్మణోః ప్రతీతిః భవతి. పచతి ఇత్యుక్తే దేవదత్తః పచతి అథవా పచ్యతే ఓదనః ఇత్యుక్తే కర్తృకర్మణోః ప్రతీతిః భవతి ఇతి సత్యం. తత్తు అనుభవసిద్ధం సర్వైః అంగీక్రియతే. కింతు తింగ్ ప్రత్యయస్య కర్తృకర్మణోః శక్తిః అస్తి ఇత్యేతత్తు అన్యైః నాంగీక్రియతే. తే కిం వదంతి? తత్ర ద్వితీయః వాదః భాట్టమీమాంసకాః మీమాంసకేషు పక్షద్వయం కేచన భాట్టాః కుమారిలభట్టానాం అనుయాయినః భాట్టాః ప్రభాకరమిశ్రాణాం అనుయాయినః ప్రభాకరాః ఇతి. తత్ర భాట్టాః వదంతి తింగః భావనాయాం శక్తిః ஃபலமாத்திரம் தாத்வர்த்தஹ பாவனா திங்கர்த்தஹ. பாவனாஶ்ரயே கர்த்தரி லக்ஷணா. சக்யார்த்தஹ பாவனா, சக்ய சம்பந்தஹ லக்ஷணா. பாவனா சம்பந்தஹ கர்த்தா, லக்ஷ்யார்த்தஹ ஏவம் ஏகஸ்யைவ திங்கஹ அர்த்தத்வயம். தத்ர பாவனா சக்யார்த்தஹ கர்த்தா லக்ஷணார்த்தஹ, லாக்ஷணிகஹ அர்த்தஹ நது சக்யஹ. ஏவஞ்ச திங்கஹ கர்த்ருகர்மணோஹ சக்திஹ இதி மாஸ்து, லக்ஷணா இதி பவது இதி தேஷாம் மதம். பிராபாகராஸ்து கிம் வதந்தி, திங்கஹ பாவனாயாம் சக்திஹ, பாவனா ஆஶ்ரயம் வினா ந உபபத்யதே அனுபபன்னா, அதஹ பாவனயா கர்த்தா ஆக்ஷிப்யதே. ஏன வினா யத் அனுபபன்னம் தத்தேன ஆக்ஷிப்யதே இதி நியமஹ. அதஹ பாவனா கர்த்தாரம் வினா ந உபபத்யதே இத்யதஹ கர்த்தாரம் ஆக்ஷிபதி ஏவம் ஆக்ஷேபாத் கர்த்துஹு ப்ரதீதிஹ பவதி நது சக்த்யா இதி பிராபாகரணாம் மதம். நையாயிகானாம் மதேது பச்சதி தேவதத்தஹ அதவா பச்சதே ஓதனஹ இத்யத்ர யஹ யத் பிரதமாந்த பதம் அஸ்தி தேவதத்தஹ அதவா ஓதனஹ இதி தேன கர்த்ருகர்மணோஹ ப்ரதீதிஹ பவதி நது திங்கந்தேன. அத்த கர்த்தகர்மணி பிரதமாந்த பதவாச்சியே நது திங்வாச்சியே இதி நையாயிகானாம் மதம். ஏவஞ்ச கர்த்தகர்மணோஹ ப்ரதீதிஹ பவதி கிந்து ஆக்ஷேபாத் லக்ஷணயா பிரதமாந்த பதாத்வா ப்ரதீதேஹ சம்பவாத். கர்த்த ப்ரதீதிஹ லக்ஷணயா பவதி இதி கேசித், ஆக்ஷேபாத் பவதி இதி கேசித், பிரதமாந்த பதாத் பவதி இதி கேசித், நது திங்காம் கர்த்ருகர்மணோஹ சக்திம் அன்யே அங்கீகுர்வந்தி. ஏவம் சதி வையாகரணைருச்யதே லஹ் கர்மணி உச்சபாவே ச அகர்மகேப்யஹ இதி சூத்ர பிராமாண்யாத் திங்காம் கர்த்ருகர்மணோஹ சக்திஹ ஸ்வீகர்த்தவ்யா இதி வையாகரணாஹ வதந்தி. கிம் உச்யதே லஹ் கர்மணி ச பாவே ச அகர்மகேப்யஹ இதி லகார விதாயகம் சூத்திரம். தத்ர கர்த்தரி கிருத் இத்யதஹ கர்த்தரி இதி அனுவர்த்ததே. லஹ் கர்மணி கர்த்தரி ச, லகாராஹ கர்மணி கர்த்தரி ச பவந்தி, அகர்மகேப்யஹ பாவே கர்த்தரி ச பவந்தி இதி சூத்ரார்த்தஹ. ஏவஞ்ச கர்மணி கர்த்தரி இதி சாக்ஷாத் சூத்ரகாரேண உச்யதே. லகாராஷ்ச யத்யபி ப்ரயோகே ந ஶ்ரூயந்தே, சர்வதா லஸ்ய இதி லகாரஸ்ய ஸ்தானே திங் ப்ரத்யயாஹ ஆதேஷாஹ பவந்தி, ததாபி ஆதேஷேஷு திங் ப்ரத்யயேஷு யா சக்திஹ கர்த்ருகர்ம போதக ரூபா சக்திஹ ஸா ஏவ சக்திஹ ஸ்தானினி ஆரோப்யதே. ஏதச்ச சர்வத்ர வ்யாகரணே பிரசித்தம் யத்ர யத்ர ஸ்தான்யாதேஷ பாவஹ தத்ர சர்வத்ர ஆதேஷஹ ஏவ ப்ரயோகே ஶ்ரூயதே. ஸ்தானீது கல்பிதஹ ததாபி கல்பிதே ஸ்தானினி ஆதேசஸ்ய அர்த்தஹ ஆரோப்யதே. விபக்தௌ வா பவது யத்ர குத்ராபி பவது ஸா ஏவ ஸ்திதிஹ. ஏவஞ்ச அத்ராபி ஆதேஷாஹ திங்கஹ ஸ்தானீது லகாரஹ அதஹ ஆதேஷே திங்கி யா சக்திஹ கர்த்ர ரூபா சக்திஹ கர்ம ரூபா வா சக்திஹ ஸா சக்திஹ லகாரேஷு ஆரோப்யதே. ஆரோப்ய சூத்ரகாரேண உச்யதே லஹ் கர்மணி ச பாவே ச இதி. ஏவஞ்ச லகாராணாம் யதா ததா திங்காமபி கர்த்தா கர்ம ச அர்த்தஹ இதி ஸ்வீகர்த்தவ்யம் இதி சூத்ர பிராமாண்ய பலாத் திங்காம் கர்த்ருகர்மணோ சக்திஹ ஸ்வீகர்த்தவ்யா இதி வையாகரணானாம் அதுனா வாதஹ. தரா கிமுச்யதே நையாயிகைஹ, சதுர்த்தமிதம் நையாயிக மதம். சத்யம் லஹ் கர்மணி ச ஏவம் கர்த்தரி கிருத் இதி சூத்ரே கர்த்தரி கர்மணி இதி ஶ்ரூயதே. கிந்து தத்ர கர்த்ரி சப்தஸ்ய கர்த்தா நார்த்தஹ நவா கர்ம பதஸ்ய கர்ம அர்த்தஹ. ததபேக்ஷயா கர்த்ர இதி கர்த்தரி இத்யத்ர கர்த்ருத்வே இதி தர்ம பரகத்வேன அர்த்தம் ஸ்வீகுர்மஹ. யதா த்வியேகயோர் த்விவசனைகவசனே இதி சூத்ரே த்விபதஸ்ய த்வித்வே ஏவம் ஏகஸ்ய ஏகத்வே இதி தர்ம பரகத்வேன அர்த்தஹ ஸ்வீகிருதஹ நது தர்மி பரகத்வேன. ஏவம் அத்ராபி கர்த்ரு இத்யனேன கர்த்ருத்வம் கர்ம இத்யனேன கர்மத்வம் இத்யர்த்தஹ ஸ்வீக்ரியதாம். ததா ச கர்த்ருத்வம் நாம கிருதிஹ கர்மத்வம் நாம ஃபலம் ச ஏவ தர்மஹ கர்த்தரி கர்த்ருநிஷ்டஹ தர்மஹ கிருதிஹ ஏவம் கர்மநிஷ்டஹ தர்மஹ ஃபலம் ஏவஞ்ச கிருதிஹ ஃபலஞ்ச திங் ப்ரத்யயார்த்தஹ இதி சித்யதி நது கர்த்ருகர்மணி இதி நையாயிகானாம் மதம். ஏதாவத் அதீதம் ಎನಿ ಡೌಟ್? ಅಯಂ ವಾದಃ ಅಗ್ರೆ ಅನುವರ್ತತೆ. ಅಸ್ಯ ಉತ್ತರತ್ವೇನ ವೈಯಾಕರಣೈಃ ಕಿಮುಚ್ಯತೆ ಇತಿ ಅಗ್ರೆ ದ್ರಷ್ಟವ್ಯಂ. ಯದಿ ಏತಾವತ್ ಸ್ಪಷ್ಟಂ ತರ್ಹಿ ಅಗ್ರಿಮಂ ಪಶ್ಯಾಮಃ. ಫಲವ್ಯಾಪಾರಯೋಃ ಧಾತುಲಭ್ಯತ್ವೇನ ಲಕಾರಸ್ಯ ಪುನಃ ತತ್ರ ಶಕ್ತಿಕಲ್ಪನ ಅಯೋಗಾತ್. ಇದಾನೀಂ ಕಿಮುಕ್ತಂ ನೈಯಾಯಿಕೈಃ ಕರ್ತೃತ್ವಂ ನಾಮ ಕೃತಿಃ ಇತಿ ವೈಯಾಕರಣಮತೆ ವ್ಯಾಪಾರಃ. ಕರ್ಮತ್ವಂ ನಾಮ ಫಲಂ. ಏವಂಚ ಫಲೇ ಫಲಂ ವ್ಯಾಪಾರಶ್ಚ ತಿಂ ಪ್ರತ್ಯಯಾರ್ಥಃ ಇತಿ ನೈಯಾಯಿಕೈಃ ಉಚ್ಯತೆ. ತತ್ರ ಫಲವ್ಯಾಪಾರಯೋಃ ಧಾತುಲಭ್ಯತ್ವೇನ ಅನನ್ಯಲಭ್ಯಃ ಶಬ್ದಾರ್ಥಃ ಇತ್ಯಸ್ತಿ. ಯತ್ತು ಅನ್ಯೇನ ಶಬ್ದೇನ ನ ಲಭ್ಯತೆ ಸ ಏವ ಅಸ್ಯ ಶಬ್ದಸ್ಯ ಅರ್ಥಃ ಇತಿ ಸ್ವೀಕರ್ತುಂ ಶಕ್ಯತೆ. ಫಲವ್ಯಾಪಾರೌ ತು ಧಾತ್ವರ್ಥಃ ಲಕಾರಸ್ಯ ಪುನಃ ತತ್ರ ಶಕ್ತಿ ಕಲ್ಪನ ಅಯೋಗಾತ್ ಇತಿ ಇದಾನೀ ವೈಯಾಕರಣಾನಾಂ ಮತಂ. ಫಲಂ ವ್ಯಾಪಾರಶ್ಚ ಧಾತ್ವರ್ಥಃ ಕೃತಿಃ ಚೇತನಾನಿಷ್ಠಃ ವ್ಯಾಪಾರಃ ಕೃತಿಃ ಇತಿ ಯಾ ನೈಯಾಯಿಕೈರುಚ್ಯತೆ ಸಾ ಕೃತಿಃ ಅಪಿ ವ್ಯಾಪಾರೇ ಏವ ಅಂತರ್ಭವತಿ. ಅತಃ ತಯೋಃ ಧಾತುವಾಚ್ಯತ್ವಂ ಅಸ್ತಿ. ಧಾತೋಃ ಫಲಂ ವ್ಯಾಪಾರಶ್ಚ ಅರ್ಥಃ ಇತಿ ಸ್ವೀಕೃತೆ. ಪುನಃ ಲಕಾರಸ್ಯಾಪಿ ಫಲಂ ವ್ಯಾಪಾರಶ್ಚ ಅರ್ಥಃ ಇತಿ ಕಥಂ ಭವತಿ. ಅನನ್ಯಲಬ್ಧಃ ಶಬ್ದಾರ್ಥಃ ಇತಿ ನ್ಯಾಯಾತ್ ಧಾತುಲಭ್ಯೇ ಫಲೇವಾ ವ್ಯಾಪಾರೇವಾ ಲಕಾರಸ್ಯ ಲಕಾರಸ್ಯ ನಾಮ ತಿಂಗಃ ತದಾದೇಶಭೂತಾಂ ಭೂತಾನಾಂ ತಿಂ ಪ್ರತ್ಯಯಾನಾಂ ಶಕ್ತಿಕಲ್ಪನಾ ಅಯುಕ್ತ. ಅತಃ ಫಲವ್ಯಾಪಾರೌ ತು ಲಬ್ಧೌ. ಅಧುನಾ ಕಿಂ ನಾಸ್ತಿ ಕಿಂ ನ ಉಕ್ತಮೇತಾವತ ಕರ್ತೃಕರ್ಮಣಿ ನೋಕ್ತೆ. ಅತಃ ತಿಂ ಪ್ರತ್ಯಯ ಕರ್ತೃಕರ್ಮಣೋರೇವ ತಿಂಗಾಂ ಶಕ್ತಿಃ ಸ್ವೀಕಾರ್ಯ ಇತಿ ವೈಯಾಕರಣಾನಾಂ ವಾದಃ. ಅಯಂ ವಾದಃ ಕದಾ ತಿಷ್ಠತಿ ಫಲವ್ಯಾಪಾರೌ ಧಾತ್ವರ್ಥಃ ಇತಿ ಸ್ವೀಕೃತೆ ಏವಂ ತಿಷ್ಠತಿ. ಕಿಂತು ಅಥ ದರ್ಶನಾಂತರೀಯ ರೀತ್ಯಾ ವ್ಯಾಪಾರಸ್ಯ ಧಾತ್ವರ್ಥತ್ವಾಭಾವಾತ್ ತತ್ರ ಲಕಾರ ವಿಧಿ ಸ್ಯಾತ್ ಇತಿ ಚೇತ್. ವೈಯಾಕರಣ ದರ್ಶನೇ ಫಲವ್ಯಾಪಾರೌ ಧಾತ್ವರ್ಥಃ ಅತಃ ಲಕಾರಸ್ಯ ತತ್ರ ಶಕ್ತಿ ಕಲ್ಪನಾ ಅಯುಕ್ತ ಸತ್ಯಂ. ಕಿಂತು ದರ್ಶನಾಂತರೀಯ ರೀತ್ಯಾ ದರ್ಶನಾಂತರಂ ನಾಮ ಮೀಮಾಂಸಾ ವಾ ನ್ಯಾಯಶಾಸ್ತ್ರಂ ವಾ. ಅತ್ರ ಮೀಮಾಂಸಾ ವಿವಕ್ಷ್ಯತೆ. ಮೀಮಾಂಸಾಶಾಸ್ತ್ರ ದೃಷ್ಟ್ಯಾ ವ್ಯಾಪಾರಸ್ಯ ಧಾತ್ವರ್ಥತ್ವ ಭಾವಾತ್ ವ್ಯಾಪಾರಃ ಧಾತ್ವರ್ಥಃ ಇತಿ ನಾಸ್ತಿ. ಅತಃ ತತ್ರ ಲಕಾರ ವಿಧಿ ಸ್ಯಾತ್. ಲಕರ್ಮಣಿ ಚ ಭಾವೇ ಚ ಕರ್ಮಕೇಭ್ಯಃ ಇತ್ಯನೇನ ಯತ್ ಕರ್ತರಿ ಇತ್ಯುಚ್ಯತೆ ತತ್ರ ಕರ್ತೃತ್ವಂ ನಾಮ ವ್ಯಾಪಾರಃ ಅಥವಾ ಭಾವನಾ ಏವ ಉಚ್ಯತೆ ಇತಿ ಮೀಮಾಂಸಕಾನಾಂ ವಾದಃ. ದರ್ಶನಾಂತರೀಯಂ ಇತ್ಯನೇನ ಅತ್ರ ಮೀಮಾಂಸಕಾನಾಂ ಮತಂ ವಿವಕ್ಷಿತಂ. ಮೀಮಾಂಸಕಮತರೀತ್ಯಾ ವ್ಯಾಪಾರಸ್ಯ ಧಾತ್ವರ್ಥತ್ವ ಭಾವಾತ್ ಫಲವ್ಯಾಪಾರಯೋಃ ಧಾತ್ವರ್ಥತ್ವಂ ವೈಯಾಕರಣೈರೇವ ಅಂಗೀಕ್ರಿಯತೆ. ಮೀಮಾಂಸಕ ಮತೆ ತತ್ರಾಪಿ ಮಂಡನ ಮಿಶ್ರಾಣಾಂ ಮತೆ ವ್ಯಾಪಾರಸ್ಯ ಅಥವಾ ಭಾವನಾಯಾಃ ಧಾತ್ವರ್ಥತ್ವಂ ನಾಸ್ತಿ. ಏವಂಚ ಲಕಾರಸ್ಯ ಶಕ್ತಿಃ ವ್ಯಾಪಾರೇ ಇತಿ ಸ್ವೀಕರಣೀಯಂ ಇತಿ ಮೀಮಾಂಸಕಾನಾಂ ಆಗ್ರಹಃ. ಯದಿ ವ್ಯಾಪಾರೇ ಶಕ್ತಿಃ ತರ್ಹಿ ಕರ್ತರಿ ಶಕ್ತಿಃ ನಾಸ್ತಿ ಇತಿ ತು ಸ್ವಭಾವತಃ ಸಿದ್ಧ್ಯತೆ. ಅತಏವ ಲಕ್ಷಣಯ ಆಕ್ಷೇಪಾದ್ವಾ ಕರ್ತುಃ ಪ್ರತೀತಿಃ ಇತಿ ಮೀಮಾಂಸಕಾಃ ವದಂತಿ. ತರ್ಹಿ ಕೃತಾಮಪಿ ಕರ್ತೃಕರ್ಮಾದಿ ವಾಚಿತ್ವಂ ನ ಸಿದ್ಧೇತ್. ಯದಿ ಏವಮುಚ್ಯತೆ ನಾಮ ಕರ್ತೃಪದಸ್ಯ ಲಕ್ಕರ್ಮಣಿ ಚ ಅಭಾವೇ ಚ ಇತಿ ಸೂತ್ರೆ ಕರ್ತರಿ ಇತಿ ಯದನು ವರ್ತತೆ ತತ್ರ ಕರ್ತೃತ್ವಂ ನಾಮ ಕೃತಿಃ ಅಥವಾ ಭಾವನಾ ಇತಿ ಯದಿ ಸ್ವೀಕ್ರಿಯತೆ ತರ್ಹಿ ಕೃತಾಮಪಿ ಕರ್ತೃಕರ್ಮಾದಿ ವಾಚಿತ್ವಂ ನ ಸಿದ್ಧೇತ್ ಇತಿ ಇದಾನೀಂ ವೈಯಾಕರಣಾನಾಂ ಅಭಿಪ್ರಾಯಃ. ಕಿಮುಚ್ಯತೆ ಯದಿ ಸೂತ್ರೇ ಕರ್ತೃಪದಂ ನಾಮ ಕರ್ತರಿ ಕೃತ ಇತ್ಯತಃ ಅನುವೃತ್ತಂ ಯತ್ ಪದಂ ತದ್ಧರ್ಮಪರಂ ಇತ್ಯುಕ್ತ್ವಾ ಕರ್ತೃತ್ವಂ ಅರ್ಥಾತ್ ಕೃತಿಃ ಪ್ರತ್ಯಯಾರ್ಥಃ ಇತಿ ಸ್ವೀಕ್ರಿಯತೆ. ತರ್ಹಿ ಕೃತ್ ಪ್ರತ್ಯಯಾನಾಮಪಿ ಕೃತ್ಯರ್ಥಕತ್ವಂ ನಾಮ ಭಾವನಾರ್ಥಕತ್ವಮೇವ ಸ್ತಾತ್ ನತು ಕರ್ತೃರ್ಥಕತ್ವಂ. ಅತ್ರ ಕೃತಾಂ ಇತ್ಯನೇನ ಕೃತ್ ಪ್ರತ್ಯಯಃ ಉಚ್ಯಂತೆ. ಡೋಂಟ್ ಗೆಟ್ ಕನ್ಫ್ಯೂಸ್ಡ್ ವಿತ್ ಕೃತ್ ಅಂಡ್ ಕೃತಿ. ಕೃತಿಃ ನಾಮ ವ್ಯಾಪಾರಃ ಅಥವಾ ಚೇತನಾನಿಷ್ಠಃ ವ್ಯಾಪಾರಃ ನೈಯಾಯಿಕ ಮತೆ ಅನ್ಯೇಷಾಂ ಮತೆ ವ್ಯಾಪಾರಃ. ಕೃತ್ ಇತಿ ತು ಪ್ರತ್ಯಯಃ ದ ಪ್ರತ್ಯಯಸ್ ದ ಸೆಟ್ ಆಫ್ ಪ್ರತ್ಯಯಸ್ ವಿಚ್ ಆರ್ ಆಡೆಡ್ ಟು ಧಾತುಸ್. ಓಕೆ ಕೃದ ತಿಂಗ್ ತಿಂಗ್ ಭಿನ್ನ ಪ್ರತ್ಯಯಃ ಕೃತ್ ಪ್ರತ್ಯಯಃ. ಸೊ ఆల్ దోస్ ఆర్ కృత్ ప్రత్యయస్. తథాచ పాచకః ఇతి పదమస్తి, పచ్ ధాతోః నుముల్ ఇతి ప్రత్యయః, సచ ప్రత్యయః కృత్, సో కృదంతః పాచకః ఇతి కృదంతం. పాచకః ఇత్యస్య కః అర్థః? పాకకర్త. ద కుక్ ఇత్యేవ అర్థః పాచక శబ్దస్య. యది లహ్కర్మణి ఇతి సూత్రే కర్తృపదస్య భావనా అర్థః కర్తృత్వం అథవా భావనా అర్థః ఇతి స్వీక్రియతే, తర్హి కర్తరి కృత్ ఇత్యత ఏవ కిల అనువర్తతే. రిమెంబర్ ద కర్తరి ఇస్ నాట్ డైరెక్ట్లీ మెన్షన్డ్ ఇన్ లహ్కర్మణి, ఇట్ ఇస్ ఫ్రమ్ కర్తరి కృత్, సో యు ఆర్ బ్రింగింగ్ ఇట్ ఫ్రమ్ అనువృత్తి. యు సే కర్తరి means kartrutva or vyapara, it means even in the previous sutra kartari krita ityatrapi karta namakim bhavana ityeva vaktavyam. Yadi bhavana iti angikriyate tarhi kim bhavati pachakaha ityatra nul pratyayasya kaha arthaha bhavana ityarthaha, tarhi pachaka padasya kaha arthaha pakanukula vyaparaha, the action of cooking ityarthaha eva buddheta natu pakakarta. బికాస్ కర్తరి కృత్ ఇత్యత్రాపి భావనా యది అర్థః స్వీక్రియతే తర్హి పాచకః ఇత్యస్మాత్ పాకానుకూల వ్యాపారః ఇత్యర్థస్య ప్రతీతిః స్యాత్, నతు పాకానుకూల వ్యాపారవాన్ పాకకర్త ఇత్యర్థః న స్యాత్. యు వుడ్ నాట్ ఇంటర్ప్రిట్ పాచక యాజ్ ద కుక్, ఇన్స్టెడ్ వి హావ్ టు ఇంటర్ప్రిట్ యాజ్ కుకింగ్, విచ్ ఇస్ అనుభవ విరుద్ధ. పాచక పదేన పాకకర్త ఏవ జ్ఞాయతే నతు పాకానుకూల వ్యాపారః ఇతి సర్వసమ్మతం. పక్వః ఇతి అస్తి, పక్వః ఓదనః కుక్డ్ రైస్, తత్ర పక్వ ఇతి కర్మణి క్త ప్రత్యయః, యథా గతః శృతః ఏవం పక్వః. సో దత్త ఇస్ రీప్లేస్డ్ బై వ. పచోవః ఇతి సూత్రేణ పచ్ ధాతోః భూతకాలే పక్వవాన్ ఇతి రూపం, నతు పక్తవాన్, యు విల్ నాట్ హ్యావ్ పక్తవాన్ ఆర్ పచితవాన్, ద ఫార్మ్ ఇస్ పక్వవాన్ అండ్ పక్వం, లైక్ గతవాన్ గతః పక్వవాన్ పక్వః, పక్వవాన్ ఇతి కర్తరి పక్వః ఇతి కర్మణి, ఏవంచ పక్వః ఓదనః రైస్ విచ్ ఇస్ కుక్డ్, బాయిల్డ్ రైస్ ఇత్యర్థః పక్వశబ్దేన బుధ్యతే. కింటు యది కృత్ ప్రత్యయానాం భావనా అర్థః ఇతి స్వీక్రియతే తర్హి పక్వః ఇత్యనేన ఓదనః న బుధ్యతే, తత్రాపి భావనాయాః ఏవ బోధః స్యాత్ ఇతి ఆక్షేపః. కిమర్థం? కర్తరీ కృత్ ఇతి చ లః కర్మణి ఇత్యనేన తుల్య యోగక్షేమం. కర్తరీ కృత్ ఇతి సూత్రే కర్తృపదస్య ధర్మిపరత్వం యది స్వీక్రియతే తర్హి లహ్కర్మణి ఇతి సూత్రే ధర్మపరత్వం ఇతి వక్తుం న శక్యతే. యు కెన్ నాట్ సే దర్ ఆర్ టూ సూత్రాస్, ఫస్ట్ యు హావ్ కర్తరి కృత్ అండ్ దెన్ ద కర్తరి కమ్స్ ఓవర్ టు లహ్కర్మణి. యు కెన్ నాట్ సే దట్ ఇన్ వన్ సూత్ర ఇంటర్ప్రిట్ కర్త యాజ్ కర్త అండ్ ఇన్ ద సెకండ్ సూత్ర ఇంటర్ప్రిట్ యాజ్ కర్తృత్వ. దెర్ ఇస్ నో యునో మానాభావ. కిమర్థం? అత్ర కర్తార్థః అత్ర కర్తృత్వమర్థః ఇతి వక్తుం తు న శక్యతే. లహ్కర్మణి సూత్రే కర్తరి కృత్ ఇతి సూత్రాదేవ కర్తరి ఇతి అనువర్తతే. ఇఫ్ ద సూత్రకార హ్యాడ్ గివన్ అనదర్ కర్తరి ఫార్ లహ్కర్మణి, ఇఫ్ ద టూ వర్డ్స్ వర్ డిఫరెంట్, సో యు కుడ్ హ్యావ్ ఇంటర్ప్రిటెడ్ ద కర్తరి ఇన్ కర్తరి కృత్ యాజ్ కర్త అండ్ ఇఫ్ దెర్ ఇస్ అ డిఫరెంట్ కర్తృపద ఇన్ లహ్కర్మణి maybe we could have interpreted it in a different way. It is not a different pada, it is the same pada. And normally arthadhikaraha, the adhikara or anuvritti in vyakarana is normally treated as arthadhikara. That is, it is not only the word which is carried over, it is the word along with its meaning which is carried over. Ataha kartari krita ityatra kartrapadasya yaha arthaha svikriyate సయేవ అర్థః లహ్కర్మణి ఇతి సూత్రేపి స్వీకరణీయం ఇతి వైయాకరణానాం మతం. తదేవ న్యాయం, దట్ ఫిట్స్ రైట్. ఐ మీన్ యు కెనాట్ ద సేమ్ వర్డ్ యు కెనాట్ ఇంటర్ప్రిట్ ఇన్ టూ డిఫరెంట్ వేస్. ఇన్ కర్తరి కృత్ బికాస్ వీ నో పాచకః ఇత్యస్య పాకకర్త ఇత్యేవ అర్థః బుధ్యతే, అతః తత్ర కర్త ఏవ అర్థః స్వీకరణీయః. తథా సతి లహ్కర్మణి ఇత్యత్రాపి కర్తరి ఇత్యనేన అనువృత్తేన కర్తృశబ్దేన कर्ता एव अर्थः स्वीकरणीयः न तु कर्तृत्वम् अथवा कृतिः। तुल्य योगक्षेमम्, तुल्यं नाम समानम्, योगः नाम अप्राप्तस्य प्राप्तिः, योगः प्राप्तस्य रक्षणम्, क्षेमम् इत्युच्यते। यत्र योगक्षेमं वहाम्यहम् इति भगवान् वदति, योगः यत् प्राप्तव्यं तत्र तस्य प्राप्तौ, क्षेमं यत् प्राप्तं तस्य च रक्षणे, रक्षणम् उभयमपि अहमेव करोमि इति। अत्रापि योगः नाम अर्थस्य प्राप्तिः, कर्तरिकृत् इत्यत्र कर्तृशब्देन यः अर्थः प्राप्यते तस्यैव क्षेमं नाम रक्षणं लःकर्मणि इत्यत्रापि भवितुमर्हति। उभयत्र समानार्थकत्वं कर्तृशब्दस्य। अतः यदि लःकर्मणि इति सूत्रे कर्तृशब्दस्य भावना इत्यर्थः कल्प्यते तर्हि कर्तरिकृत् इत्यत्रापि भावनार्थकत्वम् अङ्गीकर्तव्यं, तच्च अनुभवविरुद्धम्। सो एव्रिबडि सी पचति इत्युक्ते तत्र व्यापारः भासते वा कर्ता भासते वा इत्यत्र सन्देहः अस्ति। सो डिफरेंट दर्शनास् इंटरप्रिटेड डिफरेंटलि, किन्तु पाचकः इत्युक्ते पाककर्ता एव बुध्यते न तु पाकव्यापारः। सो इन पाचकः देर इज नो डाउट एट ऑल, आर वी टॉकिंग अबाउट द कर्ता और आर वी टॉकिंग अबाउट द एक्शन, इट इज ऑलवेज अबाउट द कर्ता। सो सिंस everybody has to accept that pachakah ityatra kartrubodhat krut pratyayanam kartrarthakatvam eva, kartarikrita ityanena krut pratyayah kartrarthe bhavanti ityeva arthah tasya sutrasya vaktavyah, tatha sati saeva arthah lahkarmani ityatra api svikaraniyah, natu kartrutva rupah athava bhavana rupah arthah svikartum na shakyate iti vayyakaranam matam. Okay, so that is one stage. Now, the Vaiyakarana, having said that, see, to follow the flow of the argument, Prathamam asit, ting pratyayena kartr karmanoho pratitihi bhavati, ataha ting vachyatvam, tasya uttaratvena tredha uttaram dattam, akshepa lakshanaya prathamantavadadva kartritva pratitihi bhavati, natu shaktya, tadaki muktam lakkarmani iti sutra pramanyat, तिङाम् कर्तृकर्म वाचकत्वम्, तस्य उत्तरत्वेन नैयायिकैरत्वम्, तत्र कर्तृत्वं कर्मत्वं च अर्थः न तु कर्ता कर्म च, तथा तस्य उत्तरत्वेन वैयाकरणैर्किमुक्तम् कर्तृत्वं नाम व्यापारः, कर्मत्वं नाम फलम्, तत्र फलव्यापारौ धात्वर्थः पुनः तिङर्थः भवितुम् नार्हति। तदा मीमांसकमतरीत्या व्यापारस्य धात्वर्थत्वं नास्ति, अतः तिङाम् व्यापारार्थकत्वम् अथवा भावनार्थकत्वं भवतु, अर्थात् कर्तरी इत्यस्य कर्तृत्वम् इत्येव अर्थः, एवञ्च भावना तिङर्थः इति भवतु इति मीमांसकानां मतम्। तत्रोच्यते यदि लःकर्मणि इति सूत्रे कर्तृत्वमर्थः तर्हि कृतामपि कृत्प्रत्ययानामपि कर्तृवाचित्वं न स्यात्, कर्तृत्व नाम भावनावाचकत्वमेव स्यात्, तत्तु न केनापि अङ्गीक्रियते। अतः कर्तृशब्दस्य कर्तृत्वम् इत्यर्थः वक्तुं न शक्यते इत्युक्त्वा अग्रे इतोपि अनुवर्तयति। अपि च मीमांसकानां, सो नौ दे आर् टार्गेटिङ्ग् बेक् द मीमांसकर्स्, देशे मीमांसकाः वदन्ति भावना तिङ्वाच्या कर्ता आक्षेपेण लभ्यते इति, वै डोण्ट् वि रिवर्स् इट्, तिङ् प्रत्ययेन कर्ता उच्यते, भावना तु आक्षेपेण लभ्यते। सी आक्षेप वर्क्स् बोत् वेस्, देर् आर् टु थिङ्ग्स् विच् डु नाट् एक्सिस्ट् विथौट् ईच् अदर्, सो वेन् यु हाव् वन् वि अस्यूम् द प्रेसेन्स् आफ् द अदर्, दट् इस् आक्षेप। नौ देशे भावना कर्तारं विना अनुपपन्ना कर्तारम् आक्षिपति, तथा सति कर्ता भावनां विना अनुपपन्नः। सो यु केनाट् से सम्बडी इस् अ कर्ता अन्लेस् देर् इस् भावना, भावनां विना कर्ता नोपपद्यते। अतः कर्ता वाच्यः भावना आक्षेपलभ्या इति वदामः इति वैयाकरणानां वादः। सो दे आर् रिवर्सिङ्ग् द आर्ग्युमेण्ट् आन् मीमांसकास्. अपि च मीमांसकानां कृताम् इव कृत्प्रत्ययानाम् इव आख्यातानामपि, आख्यातानां नाम तिङ्प्रत्ययानामपि कर्तृवाचित्वम् अस्तु, यथा कृत्प्रत्ययाः कर्तरि भवन्ति, अर्थात् कृत्प्रत्ययानां कर्तर्थकत्वम् अङ्गीक्रियते तथा आख्यातानां नाम तिङ् प्रत्ययानामपि कर्तृवाचित्वं भवतु. तेन मीमांसकानां मूलसिद्धान्तस्य भङ्गः न भवति इति प्रतिपादयितुं प्रयतन्ते. भावनायाः एव आक्षेपेण कृदादिवत् प्रतीतिसम्भवे वाच्यत्वं मास्तु. यथा कृदन्तस्थले भावना आक्षेपलभ्या एवं सिङन्तस्थलेऽपि भावना आक्षेपलभ्या भवतु. भावना वाच्या तिङ्वाच्य इति मास्तु इति उच्यते. कर्तरि कृत् इति सूत्रे कर्तृपदं धर्मिपरम् अर्थात् कर्तृपदं न तु कर्तृत्वपरम् इति सर्वैः अङ्गीकरणीयम्. तत्र नास्ति सन्देहः. पाचकः इत्यस्मात् नियमेन पाककर्तुः एव प्रतीतिः भवति न तु व्यापारस्य. अतः तत्र कर्तरि कृत् इत्युक्ते कर्तृपदं धर्मिपरं कर्तृपरमेव न तु कर्तृत्वपरम् इति सर्वैः दर्शनैः अङ्गीकर्तव्यम्. मीमांसकमते पाचकः इति पदं तत्र किमस्ति? पच् धातुना विकृतिरूपं फलं बोध्यते. यतोहि मीमांसकमते फलमात्रं धात्वर्थः. अतः पच् इति धातुना विकृतिरूपं फलं बोध्यते. नुल् इति प्रत्ययेन कर्ता उच्यते. भावना व्यापारं विना कर्ता कथम्? इफ् देर् इस् नो भावना हौ डु यु हेव् अ कर्ता? भावना तु भवेदेव. अतः भावनायाः प्रतीतिः आक्षेपेण भवति इति मीमांसकमतम्. दट् इस् फार् कृदन्तस्. तथैव कर्ता भावनां विना अनुपपन्नः सन् भावनाम् आक्षिपति. अपि च इतोप्येकं वदन्ति मीमांसकाः, प्रकृतिप्रत्ययौ सहार्थं ब्रूतः तत्र प्रत्ययार्थस्य प्राधान्यम्. वेनेवर् यु हेव् अ प्रकृति एण्ड् यु हेव् अ प्रत्यय, प्रकृतेः कश्चन अर्थः भवति, प्रत्ययस्य अन्यः अर्थः भवति. प्रकृतिप्रत्यययोः अर्थयोः उभयोः प्रत्ययार्थस्य प्राधान्यम्. दिस् इस् एक्चुलि द की आर्ग्युमेण्ट् आफ् मीमांसकर्स्. वै मीमांसकर्स् आर् adamant in saying bhavana is thingartha and not dhatvartha is because of this single thing. They accept that prakriti pratyayarthayoho pratyayarthasya pradhanyam. Wherever you have a meaning from prakriti and another meaning from the meaning of the pratyaya gains dominance. So yatha pachakaha dhatuna viklittihi एवं प्रत्ययेन कर्ता बोध्यते. तत्र कस्य प्राधान्यम्? कर्तुः एव प्राधान्यम्. अत एव पाककर्ता इत्यर्थः बोध्यते इति मीमांसकमतम्. सो दिस् इस् वाट् दे से रिगार्डिङ्ग् द पाचकः. पच धातुना विक्लिप्तिः, प्रत्ययेन कर्ता उच्यते, तत्र कर्तुः प्राधान्यम्. भावना तु प्रतीयते किन्तु आक्षेपेण. भावनां विना कर्ता नोपपद्यते इत्यतः आक्षेपेण भावना भासते, किन्तु प्राधान्यं कस्य? कर्तुः प्राधान्यम् इति मीमांसकमतम्. अतः इदानीं वैयाकरणः समानं वादं प्रक्रामन्ति. कर्तरि कृत् इत्यत्र यथा मीमांसकैरपि प्रत्ययस्य कर्तृवाचित्वम् अङ्गीक्रियते, तदनुरोधेन लह्कर्मणि इति सूत्रे अपि कर्तृपदं धर्मिपरमेव अस्तु. अर्थात् अस्मिन् सूत्रे अपि कर्ता इत्युक्ते कर्ता इत्येव अर्थं स्वीकुर्वन्तु. किमर्थं कर्तृत्वम् अथवा भावना इत्यर्थः करणीयः? कर्ता भावनां विना नोपपन्नः. यथा भावना कर्तारं विना नोपपन्ना, तथैव कर्ता अपि भावनां विना नोपपन्नः. अतः भावना आक्षिप्यते. कर्त्रा तिङर्थः यः कर्ता, तस्मात् भावना आक्षिप्येन भावना आक्षिप्यते. तथा च तिङर्थः भावना कर्ता आक्षेपाल्लभ्यते इत्यपेक्षया तिङर्थः कर्ता भावना आक्षेपाल्लभ्यते इत्येव अर्थं कुर्मः. तेन कः लाभः? सूत्रविरोधः न भवति. कर्तरि कृत् लह्कर्मणि इत्युभयं पाणिनिना उक्तम्. तत्र कर्तरि कृत् इत्यत्र कर्तृपदस्य धर्मिपरकत्वेन अर्थः कृतः. पुनः लक्कर्मणि इत्यत्र तस्यैव कर्तृपदस्य धर्मपरकत्वेन व्याख्यानम् इति चेत् सूत्राशयविरोधः भवति. उभयत्र समानः अर्थः अङ्गीक्रियते चेत् सूत्रविरोधः नास्ति इति वैयाकरणानां वादः. सो इन्स्टेड् आफ् इन्सिस्टिङ्ग् दट् भावना बीदतिङर्थ and karta is derived through akshepa, let's just reverse it. Karta is tingartha and bhavana can be obtained through akshepa. Pratitistu sarvasya bhavati. Tatha sati pradhanyam tasyaha nasyat iti chet na. So tatha sati pradhanyam tasyaha nasyat iti mimamsakanam vadaha. So the mimamsakas now reply tatha sati arthat tingvachyaha karta kartra bhavana akshipyate ityukte bhavanayaha pradhanyam nasyat. Then see the main siddhanta of a mimamsaka is bhavana mukhya visheshakah shabdabodhah. Shabdabodhe bhavana pradhana iti bhavet. Now, if bhavana is obtained only through akshepa and not through shakti, that is, thing pratyayanam yadi bhavanayam shaktihi nangi kriyate, tarhi bhavana pradhanyam nasyat. Kimartham bhavana pradhana syat? Iti chet, bhava pradhanam akhyatam iti nirukta vachanam. So, niruktam by Yaska Maharshi, it is a text, a Vedic text related to the Vedas, which is probably precedes Panini. Okay, Yaska Maharshina Pranitam Niruktam. So Nirukta is a text which is composed to give the etymology of Vedic words, not all words, difficult Vedic words. Nirukte bahunam. Padanam vyutpatihi, Vaidika padanam vyutpatihi pradarshyate. Tena Yaska Maharshina nirukte yaduchyate, tadapi pramanam, yatha paninina uktam pramanam, tatha yaskena uktam api pramanam. Yaskena kimuchyate, bhava pradhanam akhyatam, akhyatam namatingantam, tatra bhavanayaha pradhanyam ityuktam. Ataha bhavana pradhana, yaha arthaha pradhanam, tasya eva vachyatvam yuktam. Now from a thing pratyaya you are saying there are two meanings you get it. One you get directly as the shakyartha, the other you get indirectly either through lakshana or through akshepa. Okay. So the mimamsaka say bhavana is the direct shakyartha and karta is either lakshana or akshepa. Now if the vayakaranas try to propose that karta is the shakyartha or the direct meaning and bhavana is the akshepa, is obtained indirectly through akshepa, then bhavana would not be pradhana. Why? Pradhanyasya eva vachyatva muktam. That which is the direct meaning of a word is naturally important. So if you are saying the direct meaning is karta, then karta would be pradhana and not bhavana which is obtained through akshepa. Yaha arthaha pradhanam tasyaiva vachyatva muktam. Like we saw in kridanta, pachakaha, tatra karta sakshad uchyate pratyayena, bhavana akshepa labhyate, kasya pradhanyam kartureva pradhanyam natu bhavanayaha. Evameva atra, yadi karta pratyayena uchyate, bhavana akshepa labhyate, tarhi kartuhu pradhanyam syat, tattu neshyate, bhavanayaha eva pradhanyam ishyate. Ataha, bhavanayaha vachyatvam svikaraniyam, ting vachyatvam. Ataha, ting pratyayena bhavana eva uchyate, natu karta. Iti mimamsakanam matam. Tatra vayyakaranaihi uchyate. Jati shakti vadaha iti. So this is one of the famous vadas which is not directly related to vyakarana but which is generally in vogue in all darshanas. Again, sarvesha darshaneshu ayam vicharaha uchyate. Okay, so there is, whenever there is a pada, okay, so there are two kinds of meanings. One is called the jati and the other is called vyakti. Say for example, when we say something like ghata. Okay. So there is an individual ghata, which is the vyakti. There is also a class of padarthas called ghata, which is a jati. Ghata is a class, a pot. Okay. So that is jati. So there is ghata jati and ghata vyakti. Okay. Now, whenever somebody says ghataha, does it refer to ghata jati or does it refer to ghata vyakti is a question. Okay. It's a very, very, you know, one of the egg first or chicken first. So, such questions in our darshana. Okay. All darshanas deal with this question, and everybody arrives at different siddhantas to different ways. Okay. There are some who accept jati shakti, that is jati, jate, the word represents jati. There are some others who say that the word represents vyakti. So two opposing views are there in different philosophies. Okay. Now, the Mimamsakas are jati shakti vadinaha. Arthat jatau shakti. Any word represents the class. So ghataha does not mean an individual pot. It means the class of objects called pot, which possess the property of ghatatva. So a ghata refers to a class of objects, all of which possess the attribute of ghatatva. It does not refer to an individual ghata. Okay, that is the one of the siddhantas of Mimamsakas called the Jati Shakti Vada. Okay. So now let us examine this argument. Forget what we are talking about. This is not related directly to what we are talking about. Okay. This has nothing to do with Tinganta or Vyapara or whatever. So this is an independent Vada. Let us try to understand what is Jati Shakti Vada. So what is Jati Shakti Vada? Mimamsa Rante, Akrutya Adhikaranam, iti kinchit adhikaranam, the texts of Mimamsa, not just Mimamsa, all Bhashya texts and such texts are divided into Adhikaranas. Okay. Whether you go to the Brahma Sutra Bhashya or the Mimamsa Bhashya, they are all divided into Adhikarana. Adhikarana is a section, okay, a section dealing with a particular thing. So there is a particular section called Akrutya Adhikaranam. Akriti is a synonym of Jati. Okay. So, akrutyadhikaranam. Tatra kim vicharyate jatau shaktihi uta vyaktau. So, does any given word, does it represent a jati or does it represent a vyakti? Iti amshaha tatra vicharyate. Ghataha iti padasya ghatatva jatau shaktihi va ghatarupayam vyaktau va iti prashnaha. The same thing which I said, does it represent the class of pots? Or does it represent an individual pot? Jati shakti vadinaha mimamsakaha. Arthat tesham mate ghataha iti padena ghatatva jatihi eva buddhyate natu ghatarupa vyaktihi. Kimartham laghavam vyaktau shaktihi svikriyate chet vyaktinam anantyat gauravam. If you are saying the word ghata represents an individual ghata, there are an infinite number of pots in the world. So, the number of shakyarthas for the word ghata would also be infinite. Ananta vyaktinam shakti kalpane gauravam. So, you have to say, okay, the word ghata expresses ghata number 1, ghata number 2, ghata number 3 and so on till infinity. So, the number of shakyarthas for the word ghata is ananta and it is gaurava. Instead, if you say the word ghata expresses the class of pots, jati is always one. Jati hi eka eva. So what is the meaning of the word ghata? Ghatatva jati hi. Laghavam. Laghavat jatau shakti hi svikaraniya iti mimamsakanam matam. So this is a very very sthula picture of the vada. Because obviously there are arguments, there are counter arguments to each of these. But giving the bare basics of the argument of how they, what it is. Okay. So now, ghata, ghata shabdasya, ghatatva jatihi ityarthaha. Jatishcha vyaktim vina anupapanna. So again you have the akshepa. Because you cannot have a class of beings, you cannot have a class without the individual. Okay. If there are no cows, no individual cows, you cannot have the jati of gotva. Okay. So gotva jati exists in the individual cow. So if there is no vyakti, there is no jati. So even though jati is different from vyakti, jati cannot exist independently of vyakti. Jati hi vyaktim vina anupapanna vyaktim akshipati. So even though you say the word ghata represents ghatatva jati, by akshepa, the ghata vyakti is still there. You still have to say that there is an individual ghata, But the individual ghata is not the direct meaning of the word. It is akshepa. So that is jati shakti vada. Padasya jatau shakti hi vyakti hi akshepa labhyate. Now, which is pradhana? Is jati pradhana or is vyakti pradhana? Jati hi sakshat shakyartha athava vachyartha. Jate hai pradhanyam va. Akshepalabhyayaha vyaktehe pradhanyam va iti prashnaha. Ghatam anaya iti prayogaha. Bring a pot. Kim aniyate? What is brought? If somebody says ghatam anaya, will the person bring a ghata vyakti or the ghata jati? Will he bring an individual pot or will he bring a class of pots? He brings an individual pot. The pot has the property of ghatatva, but ghata vyaktereva anayam bhavati. Ghatam pashya iti yatra yatra kriyaya anvayaha, tatra vyaktereva anvayaha. You can see only the individual pot, not the class of pots. Okay? Ataha vyaktereva anayanam va darshanam va bhavati natu ghatatva jatehe. Tarhi kasya pradhanyam akshepalabhyayaha vyaktereva pradhanyam natu jatehe. Etattu anubhavasiddham. So everybody's experience is that the sentence ghatam anaya means the anaya, the kriya is associated with an individual pot and not with the class. Therefore, laghavat jatau shaktihi angi kriyate kintu pradhanyam tu vyaktereva. Yadyapi jatau shaktihi tathapi pradhanyam vyaktehe. Sacha vyaktihi kidrishi akshepalabhya avachya, that is, it is obtained through akshepa, not directly expressed by the word. Okay? So, this is what the Mimamsakas say in the Akrutyadhikarana. Okay? Totally tangential. None of this is related directly to this. But you can see the argument. What did they say earlier? They said, if karta is tingvachya and bhavana is akshepalabhya, then bhavanayaha pradhanyam nasyat iti chet. That was the previous sentence. Tathasati bhavanayaha eva akshepena kridadivat pratiti sambhave vachyatvam mastu. Tathasati pradhanyam nasyat. Then the Mimamsakas say bhavana would not be pradhana iti chet na. So you cannot say that. Why? Ghatam anaya ityadu akshipta vyakterapi pradhanyavat upapattehe. By the same logic, when you say ghatam anaya, yatha ghatam anaya iti prayoge, jatau shaktihi chedapi akshiptayaha vyaktereva pradhanyam angikriyate. Ghatam anaya ityadau akshipta vyakterapi pradhanyavat tatha. In the same way, going by the same arguments that the Mimamsakas have propounded in their Akrutyadhikarana. Tatha atrapi kartari tingam shaktihi karta tingvachyaha bhavana akshepalabhya akshiptayaha bhavanayaha eva pradhanyam. You can still have bhavana as pradhana because that is what we also want. We also say vyapara mukhya visheshakaha shabda bodhaha. So we don't have any problem with that. Bhavana can still be pradhana, but it is akshepalabhya. Tingam kartrakarmanoreva shaktihi iti tu svikaraniyam eva iti vayakaranam vadaha. Pachati. Okay. So that is argument number 9. Are we clear so far? Okay. Any questions? Please do ask if you are losing track somewhere, because it's okay if we repeat some of the things. Better be clear. Mridula, prashna hastiva. You can, if you want to ask, you can unmute yourself by clicking on the microphone link. So I have unmuted you. यदि प्रश्नः अस्ति तर्हि पृच्छतु. हा अग्रिमम् अग्रिमः वादः. पचति इत्यादौ पाकं करोति इति भावनायाः विवरणदर्शनात् वाच्यत्वम् इति चेत्. सो आल् दीस् वर्ड्स् इति चेत् इति चेन्न दे आर् आल् पाराफ्रेसिङ्ग् द पूर्वपक्ष. ओके, सो इन् द नोट्स् ऐ एम् रेप्रेसेण्टिङ्ग् द पूर्वपक्ष अण्ड् यु नो उत्तरपक्ष सेपरेट्लि, बट् इट् इस् वन् कण्टिन्यूस् स्ट्रीम् आफ् सेण्टेन्सेस् इन् the main text. Okay, the same sentence will have the first have purvapaksha and then the answer to it, so that is where you have the iti chet or iti chenna or navachyam, all those represent the purvapaksha. So now what would the mimamsaka answer to it? Okay, so what is the vyakarana saying? Ting pratyayasya bhavana arthaha कर्ता आक्षेपा लभ्यते इति मास्तु, तिङ् प्रत्ययस्य कर्ता अर्थः भावना आक्षेपा लभ्यते इति वदामः. यथा जातिशक्तिवादे अपि व्यक्तेः प्राधान्यम्, आक्षेपलभ्यायाः व्यक्तेः प्राधान्यम्, तथा अत्रापि आक्षेपलभ्यायाः भावनायाः एव प्राधान्यं भवतु. तत्र मीमांसकैः उच्यते पचतीत्यादौ पाकं करोति इति भावनायाः विवरणदर्शनाद् वाच्यत्वम्. सो दे आर् ट्रैङ्ग् अ डिफरेण्ट् ट्राक्. पचति इत्यस्ति, पचति इत्यस्य कः अर्थः? पाकं करोति इत्यर्थः, सर्वसम्मतम्. ओके, सो पचति मीन्स् पाकं करोति इति अर्थविवरणं सर्वैः अङ्गीक्रियते. तत्र किमस्ति? तत्र पाकम् इति धात्वर्थस्य विवरणं, करोति इति तिङर्थस्य विवरणम्. तत्र पचति इत्यत्र भागद्वयम्, एकः धातुः अपरः प्रत्ययः. तत्र पाकं करोति इत्यत्र पदद्वयम्, तत्र पाकम् इत्यनेन धातोः अर्थविवरणम्, करोति इत्यनेन प्रत्ययस्य अर्थविवरणम्. धातोः अर्थः कः इति इदानीं मास्तु, करोति इति तिङ्प्रत्ययस्य अर्थः. तत्र कृ धातुः अस्ति, कृ धातोः कः अर्थः? भावना इत्येव अर्थः. सो कृ इस् अ धातु विच् रेप्रसेण्ट्स् प्योर् भावना, दट् इस् ओन्ली भावना और् व्यापार. कृ धातोः व्यापारार्थकत्वमेव, इट् रेप्रसेण्ट्स् व्यापार सामान्य. आल् धातूस् रेप्रसेण्ट् व्यापार विशेष, पर्टिक्युलर् कैण्ड् आफ् व्यापार, वेरस् कृ धातु रेप्रसेण्ट्स् व्यापार इन् जनरल्, भावनार्थकः कृ धातुः. इत्थं च in the meaning, whenever we are explaining the term pachati, pakam karoti iti kru dhatuna vivaranam kriyate, kru dhatoh bhavana arthaha, ataha bhavana arthaka karoti na ting arthaha vivriyate. So ting pratyayasya arthaha pakam karoti iti kru dhatuna vivriyate, kru dhatoh arthaha bhavana, ataha ting pratyayasya arthaha bhavana, भावना एव तिङ्वाच्य इति मीमांसकानां वादः. ओके, नाट् जस्ट् पाकं करोति, एनी धातु यु टेक् से नृत्यति, नृत्यं करोति, गायति, गानं करोति. सो एव्रीवेर् यु हाव् द धातु पार्ट् सेपरेट् अण्ड् द तिङ् पार्ट् सेपरेट्, द तिङ् पार्ट् आफ् इट् आल्वेस् रेप्रसेण्टेड् बै करोति. Okay, this is a technique which we normally use in sambhashana. Okay, when you are teaching conversational Sanskrit, that is what they say, don't worry about using a tinganta. Say bhunkte iti vaktavyam, bhojanam karoti iti saralam, pathanam karoti, whatever, krayanam karoti, instead of krinati, you don't know the form, forget it, krayanam karoti. So everywhere you can join karoti and explain or get a verb. Okay. सो नौ करोति, सर्वत्र तिङ् प्रत्ययस्य अर्थः केन उच्यते? करोति इति धातुना उच्यते, अतः तिङ् प्रत्ययस्य अर्थः कृ धातुः, कृ धातोः अर्थः भावना, एवञ्च तिङ् प्रत्ययस्य अर्थः भावना, भावना एव तिङ्वाच्य इति मीमांसकमतम्. पचति इत्यादौ पाकं करोति इति भावनायाः विवरणदर्शनात् वाच्यत्वम् इति चेत्. So if that is the argument you are giving, so what is the reply? Pakanukula vyaparavataha kartur api vivarana vishayatva avisheshat. करोति इति तिङन्तेन तेन किमुक्तं कृ धातुः भावनार्थकः बट् द वर्ड् करोति डस् नाट् रेप्रेसेण्ट् ओन्ली भावना तिङन्तेन भावना केवलं नोच्यते तत्रापि पुनः भागद्वयं कृ इति धातुः तिङ् इति प्रत्ययः तत्र कृ धातुना भावना उच्यते तदुत्तरेण तिङ् प्रत्ययेन कर्ता उच्यते सो इवन् इन् करोति यु हाव् टु पार्ट्स् सो द धातु रेप्रेसेण्ट्स् भावना एण्ड् द तिङ् रेप्रेसेण्ट्स् कर्ता एवं विवरणं तिङ् प्रत्ययस्य पचति इत्यत्र तिङ् प्रत्ययस्य विवरणं करोति इति शब्देन क्रियते किन्तु करोति इत्यस्य केवलं भावना नार्थः भावना कर्ता इत्युभयमर्थः एवं व्यापारवान् कृ धातोः भावना कर्ता एवं व्यापारवतः कर्तुः अपि विवरणविषयत्व अविशेषात् भेदः नास्ति यथा भावना करोतिना उच्यते तथैव कर्ता अपि करोति इति शब्देन उच्यते सो द वर्ड् करोति रेप्रेसेण्ट्स् नाट् जस्ट् भावना आल्सो द कर्ता एवं सति भावना एव तिङ्वाच्य इति किमर्थं कर्ता अपि तिङ्वाच्यः इति वक्तव्यमेव किल एवञ्च पचति इत्यस्य विवरणे यथा भावनायाः वाच्यत्वं तथा कर्तुरपि वाच्यत्वम् अस्ति सो यु केनाट् यूस् दिस् आर्ग्युमेण्ट् टु से नैतत् भावनायाः तिङ्वाच्यत्वे नियामकम् सो यु केनाट् से बिकास् करोति करोति इति पदेन विवरणं क्रियते इत्यतः भावना तिङ्वाच्या इति वक्तुं न शक्यते करोति इति पदेन यथा भावना प्रतीयते तथैव कर्ता अपि प्रतीयते एवं चेत् भावना तिङ्वाच्या वा कर्ता तिङ्वाच्यः वा इति वक्तुं नियामकं नास्ति देर् इस् नथिङ्ग् टु से दट् भावना इस् तिङ्वाच्य एण्ड् नाट् कर्ता सो द आर्ग्युमेण्ट् विल् नाट् होल्ड् इस् व्याकरणम् न च कर्तुः विवरणं तात्पर्यार्थविवरणं पाकं करोति इति अशब्दार्थकर्मत्वविवरणवत् इतरेतरयोगद्वन्द्वे समुच्चयांशविवरणवद्वा न तदर्थनिर्णायकम् इति वाच्यम् सो द मीमांसकास् आन्सर् बेक् देशे विवरणं न केवलं शक्यार्थं बोधयति अपि तु तात्पर्यार्थमपि सो वेनेवर् यु आर् ट्रैङ्ग् टु एक्स्प्लेन् सम् वर्ड् थ्रू अदर् वर्ड्स् those other words will have some portions which directly explain the meaning of the original word they will also contain other portions which are not intended by the original word na kevalam shakyarthah sakshadyah arthah tameva bodhayitum na shaknoti vivaranam tatparyartham there are some other portions which are not intended for example pachati ityasti पाकं करोति इति विवरणं किन्तु उभयोः सर्वथा साम्यं नास्ति किमर्थं पाकं करोति इत्यत्र पचति इत्यत्र भागद्वयमेव पचि इति धातुः ति इति प्रत्ययः पाकं करोति इत्यत्र तु चत्वारः भागाः सन्ति पाक इति प्रातिपदिकमस्ति अम् इति सुप्रत्ययः अस्ति कृ इति धातुः अस्ति तिङ् इति प्रत्ययः अस्ति एवं चत्वारः भागाः सन्ति पाक इत्यस्य विक्लिप्तिः इत्यर्थः अम् इत्यस्य कर्मत्वम् इत्यर्थः इत्युक्ते द्वितीया विभक्तिप्रत्यय विच् रेप्रसेण्ट्स् कर्म अतः कर्मत्वम् इत्यर्थः कृ धातोः भावना अर्थः तिङ् प्रत्ययस्य कर्ता अर्थः इति यद्यपि उच्यते तथापि तत्र विक्लिप्तिः भावना पचति इत्यत्र धातुना विक्लिप्तिः आख्यातेन भावना इति द्वयमेव शक्यार्थः So the direct meaning of the dhatu is only viklitti and bhavana. The karma is not included in the dhatu. Okay, that is sarvasammatam. So nobody will say that the pakam iti dvitiya vibhaktehe sattve api karmatvam pachati ityatrena bodhyate iti kopi na vadati. Okay, even a vayakarana cannot tell it because pachati is a kartari prayoga. There is no expression of karma. सो यद्यपि पाकम् इत्यत्र द्वितीया विभक्तिप्रत्ययेन अम् इत्यनेन कर्मत्वं बोध्यते तथापि सः कर्म तत् कर्मत्वं शक्यार्थः न इट् इस् नाट् एक्स्प्रेसिङ्ग् एनी मीनिङ्ग् आफ् द मूल ओके इट् इस् जस्ट् देर् बिकास् यु केनाट् एक्स्प्रेस् अ विवरण विथौट् दिस् प्रत्यय प्रत्ययं विना केवलस्य विक्लिप्तेः vachyatvam vachakatvam na sambhavati ityataha tatra pratyayah asti. So it is not intended. Similarly, pakam karoti iti ashabdartha karmatva vivaranavat. Karmatvam shabdarthaha na, pachati iti shabdasya arthaha na, tathapi tatu bhasate vivarane, tathaiva karta api bhasate kintu shakyarthaha na. So just like the karmatva, which is in the vivarana you have the karmatva, but this karmatva is not a meaning of the original word. Tathaiva karta yadyapi bhasate tathapi shakyarthaha na. Viklitihi bhavana iti dvayameva shakyarthaha karmatvam karta cha shakyarthaha na. Itopyekam udaharanam diyate itaretara yoga dvandve samuchayamsha vivaranavat. Ramakrishnau iti samasaha ramascha krishnascha iti vivaranam ayam itaretara dvandva samasaha ramakrishnau tatra vivaranam kim diyate ramaha cha krishnaha cha iti chakaraha upayujyate chakarasya arthaha samuchayaha. Okay. Atra ramaha krishnaha iti dvayameva shakyarthaha. The samasa is only Rama and Krishna. The word which is expressed by the samasa is only Rama and Krishna. Sayeva shakyarthaha. Ayam samuchayarthaha shakyarthaha na iti angi kriyate. Okay. So let's not go into detail about samasartha because that is again a very slippery topic. But this is in general what they say. Itaretara yoga dvandve samuchayamsha vivaranat vivaranavat yatha vivarane samuchayamsha asti kintu vastutah samasena asti evameva atrapi pachati ityatra pakam karoti ityatra karmatvam kartacha vivarane pratiyate vastutah shakyarthah na na tad arthanirnayakam tena arthah na jnayate atah yadyapi pakam karoti iti vivarane karturapi bhanam asti tathapi pradhanyat because bhava pradhanam akhyatam iti yatha jani maha tatha bhavanayah eva vachyatvam iti mimamsakamatam tatra vayyakaranai rachyate bhavanayam api tulyatvat. So he says the same argument will also hold for bhavana. You are saying paka am kriti tatra viklittihi karmatvam bhavana karta iti chatvaraha arthaha vivarane pratiyante. Tatra viklittihi bhavana cha shakyarthaha karmatvam karta cha shakyarthaha na iti bhavadbhihi mimamsakai ruchyate. Vayam vadamaha viklittihi karta cha shakyarthaha karmatvam bhavana cha shakyarthaha na. So, I mean, what is there to say that bhavana is shakyartha and not karta? Why not accept that the karta itself is shakyartha? And bhavana is not tulyatvat. Bhavana has the same status. Okay. Evam api vaktum shakyate. Bhavana eva tatparyarthaha. Vastutaha karta eva shakyarthaha. Ityapi vaktum shakyate. Vinigamaka bhavat. There is nothing to differentiate between the two. You say bhavana is shakyartha, karta is akshepalabhya. We say karta is shakyartha, bhavana is akshepalabhya. Vinigamaka bhavat. There is nothing to differentiate. In addition, sutra pramanyat, we have the sutra directly saying lak karmani cha kartari cha. The kartari, kartari krita ityatra kartuhu dharmi vachikatvam bhavadbhirapi angi kriyate. The seva sutra sya pramanyat, atra api kartuhu eva karta ityeva arthaha angi kartavyaha. Sutra pramanya vala, since we have the pramanya of the sutra, karta eva tingvachyaha. Bhavana akshepalabhya bhavatu tathapi tasyaha pradhanyam tu siddhyatyeva iti vayyakarana. Okay. So we will stop here for today and we will continue in the next class. Any questions? So we'll stop. The next class is on Thursday afternoon 3:30. Parayanam adya bhavantaha vayaktika rupena kuruvantu. Very sorry, I have to go somewhere. So please do not forget, open and read the shlokas once individually. We will continue the discussion in the next class. ಶ್ರೀಲಕ್ಷ್ಮೀರಮಣಂ ನೌಮಿ ಗೌರೀರಮಣರೂಪಿಣಂ ಸ್ಫೋಟರೂಪಂ ಯತಃ ಸರ್ವಂ ಜಗದೇತದ್ವಿವರ್ತತೆ.